परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो ध्यानश्लोकं सर्वे वदामः पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीं अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीं नमोऽस्तु ते व्यासविशालबुद्धे भुल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम् मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम् सर्वेभ्यः राम राम राम। अद्य सर्वेषां कृते वीडियो दृश्यते वा, तत्र श्रवणमाध्यमं श्रूयते वा इति एकवारं पश्यतु। यावत् अन्ये सर्वे छात्राः सम्मिलन्ति तावत् पूर्वतनकक्षायां किं किं कृतमिति एकवारम् अतीव शीघ्रतया पश्यामः। वि विल् जस्ट् ट्रै टु डू अ रीकेप् आफ् द प्रीवियस् क्लासस्। प्रथमतया तावत् गुरुकृपया, ईशकृपया, श्रीकृष्णपरमात्मनः कृपया च एषा कक्षा प्रारब्धा अस्ति, प्रारम्भं कृता अस्ति। प्रथमकक्षायां तावत् किमर्थं गीताध्ययनं कर्तव्यं, तेन किं प्रयोजनम् इति अस्माभिः दृष्टमस्ति। वि सा वै गीता, वि सा द लिङ्क्स् बिट्वीन् वेदास् अण्ड् गीता, अण्ड् वि सा द ग्रेट्नेस् आफ् गीता। गीता माहात्म्यश्लोकाः अस्माभिः दृष्टाः, अत्र पुराणान्तर्गतश्लोकाः, महान्तः चरित्रसम्बन्धिकथाः च अस्माभिः दृष्टाः सन्ति। अनन्तरम् आधुनिक यत् पुस्तकानि सन्ति तेषां यदि वयं तत्र कम्पेर् कुर्मश्चेत् तत्र गीता वर्सस् माडर्न् बुक्स् अपि कृतमस्ति अस्माभिः। गीता का इत्यपि अस्माभिः दृष्टा, तत्र कुत्र अस्ति, कुत्र अन्तर्गता अस्ति इति अस्माभिः दृष्टा, अनुबन्धचतुष्टयम् अस्माभिः दृष्टा। तदनन्तरं कथं तत्र मार्गत्रयेण कर्मकाण्डम्, उपासनाकाण्डम्, अनन्तरं ज्ञानकाण्डमिति भागत्रयेण कथम् अध्ययनं कर्तव्यमिति अस्माभिः दृष्टा अस्ति। अनन्तरं द्वितीयकक्षायां तावत् अस्माभिः साधारणतया अन्वयं कथं करणीयम् इति अस्माभिः दृष्टमस्ति। अन्वय अतीव सुलभतया यदि अन्वयं कर्तव्यं चेत् कथं करणीयम् इति अस्माभिः दृष्टा अस्ति। तत्र प्रथमं तावत् कर्तृपदस्य प्रयोजनम्, उपयोगः, प्रयोगः कर्तव्यः, अनन्तरं कर्मपदस्य प्रयोगः, अनन्तरं क्रियापदं। कर्तृपदं तावत् क्रियायाः कर्ता यः अस्ति तदेव कर्तृपदम्। आब्जेक्ट् आफ् द आब्जेक्ट् आन् विच् द वर्क् इस् बीङ्ग् डन् दट् विल् बि द कर्मपदम्, अण्ड् द आक्षन् वर्ड् इस् द क्रियापदम्। तत्र यदि विशेषणमस्ति अस्ति चेत् तत् कर्तृपदं वा कर्मपदस्य पूर्वम् अन्वयं कर्तव्यमिति अस्माभिः दृष्टम्. वि हव् सीन् द मेथड् हौ टु डु अन्वय आल्सो. प्रथमश्लोके तावत् अतीव सरलतया अस्माभिः दृष्टमस्ति. धृतराष्ट्रः सञ्जयं पृच्छति अस्मिन् धर्मक्षेत्राख्य तत्र कुरुक्षेत्राख्यप्रदेशे मत्पुत्राः पाण्डुपुत्राः सम्मिलिताः ये सर्वे युद्धं कर्तुम् इच्छवः ते किं किम् अकुर्वन् इति सः पृच्छति. तत्र तदर्थं सञ्जयः तत्र उत्तरं ददाति. व्यूहत्वेन स्थापितं पाण्डवसैन्यं दृष्ट्वा राजा दुर्योधनः स्वगुरुं द्रोणाचार्यस्य समीपम् आगत्य सः एतद्वाक्यम् अब्रवीत् इति द्वितीयश्लोकम् अस्माभिः दृष्टम्. तृतीयश्लोके तावत् दुर्योधनः भणति, हे आचार्य, तव अतीव बुद्धिमता शिष्येण इति किञ्चित् व्यङ्ग्यरीत्यापि अस्माभिः दृष्टं यत् सः वदति तव शिष्येन दृष्टद्युम्नेन व्यूहत्वेन स्थापितमस्ति अस्माभिः दृष्टं. तत्र वज्रव्यूहस्य प्रयोगमस्ति. तत्र पाण्डवानाम् एषा अनीका यदस्ति तत्र वीक्षस्व तत् अद्य अतीव बृहत्तया दृश्यते इति दुर्योधनेन उक्तमस्ति. फस्ट् श्लोक वि सा दट् धृतराष्ट्र इस् आस्किङ्ग् सञ्जय वाट् आर् हिस् सन्स् अण्ड् पाण्डु सन्स् डूयिङ्ग्. सेकेण्ड् चाप्टर् वि सा दट् सञ्जय इस् रिप्लैङ्ग् टु सेकेण्ड् श्लोक वि सा दट् सञ्जय इस् रिप्लैङ्ग् टु धृतराष्ट्र. Raja Duryodhana is coming to see his guru Dronacharya and he is telling Dronacharya, oh Acharya, see the entire Pandava army, how it has been designed in a vyuha form, in a battle array form, and how even a smaller sainya of 7 akshohinis is now being appearing very very huge, and just see this, and it has been formed by your very very intelligent student Drishtadyumna. So this is both instigating Dronacharya to form a bigger array, a bigger vyuha, which will be totally indestructible. So this till now, till this we saw asmabhi drishtamasti. Tatra akshohini ityukte kimiti asmabhi tatra kinchit samsheha asit. Akshohini is the number of a set of Ratha, Gaja, Turaga and Padati. Ratha will be the chariots which are there, the Gaja elephants, Turaga are the horses, and Padati will be the infantry, which is the people on foot, the soldiers on foot who are there. So a combination of around 21,870 chariots and equal elephants and 65,610 horses, 1,09,350 Padati infantry soldiers, all these put together will be one Akshohini. This is the calculation of one Akshohini. And then if we see, Pandavas had 7 Akshohinis with them, which totals to, as we have written here, 1,53,90 and 4,59,270, totaling of 15,30,900 overall war people or war categories, which we can tell that. And then the Kaurava army had 11 Akshohinis. With this was the massive numbers what we are seeing here. With this we can probably imagine the massiveness or the greatness of the war of Kurukshetra war, which was fought between Pandavas and Kauravas. So just a small note for us, because some of us were asking what is the term Akshohini mean, and how is that vyuha established. So placing these Ratha, Gaja, Turaga, Padati in the specific form, we get specific vyuhas. Different combinations are there which have different strategies for the war. Going ahead, Adyatana Shlokaha. वयं श्लोकाः वदामः. सर्वे अनुवदन्तु. पूर्वकक्षायाः श्लोकाः अपि अस्माभिः कण्ठस्थीकृताः इति भावये, यदि न कृताः इदानीं कृपया कुर्वन्तु इति प्रार्थये. लेट् अस् ट्रै टु बै हार्ट् द रेस्पेक्टिव् श्लोकास् आफ् ईच् चाप्टर् एण्ड् आल्सो द मीनिङ्ग्स्, सो दट् इफ् यु डू इट् अन् क्लास् बै क्लास् बेसिस् इट् विल् बि ईज़ी फार् अस् टु गो एण्ड् टेक् फर्दर् बेटर् अण्डर्स्टाण्डिङ्ग्. इदानीं चतुर्थ पंचम षष्ठ श्लोकाः एकतया पश्यामः. सिंस श्लोकास 4 5 6 आर इंटररिलेटेड एंड एक्चुअली फॉर्म अ सिंगल सेंटेंस व्हेन सीन एंड एट एन अन्वय फॉर्म वी आर टेकिंग इट टुगेदर. सो लेट अस टेल द श्लोक. आई विल टेल द श्लोक, काइंडली रिपीट. अत्र शूरा महेश्वासाः भीमार्जुनसमायुधि युयुधानो विराटश्च द्रुपदश्च महारथः धृष्टकेतुश्चेकितानः काशीराजश्च वीर्यवान् पुरुजित कुंतीभोजश्च शैब्यश्च नरपुंगवः युधामन्युश्च विक्रांत उत्तमौजाश्च वीर्यवान् सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः इदानीं श्लोकः सरलः वर्तते, तदर्थं सर्वे समतया वदामः. अत्र शूरा महेश्वासा भीमार्जुनसमायुधि युयुधानो विराटश्च द्रुपदश्च महारथः धृष्टकेतुश्चेकितानः काशीराजश्च वीर्यवान् पुरुजित कुंतीभोजश्च शैब्यश्च नरपुंगवः युधामन्युश्च विक्रांत उत्तमौजाश्च वीर्यवान् सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः. आङ्ग्लभाषायामपि अस्माकं बान्धवानां कृते तत्र मुद्रितमस्ति. आङ्ग्लभाषालिपेः प्रयोगमपि स्वीकर्तुं शक्यते. इदानीं यदि वयं तत्र श्लोकसङ्ख्यां पश्यामश्चेत् वि आर् इन् द 4th, 5th अण्ड् 6th श्लोका आफ् द फस्ट् चाप्टर् कण्टेनिङ्ग् 47 श्लोकास् आफ् द टोटल् 700 श्लोकास् इन् भगवद्गीता. पदच्छेदः पश्यामश्चेत् अतीव सरलः वर्तते. तत्र प्रायशः विसर्गसन्धिरेव भवति प्रायशः. तत्र यदि पश्यामश्चेत् अत्र शूराः महेश्वासाः भीमार्जुनसमाः युधि युयुधानः विराटः च द्रुपदः च महारथः धृष्टकेतुः चेकितानः. अत्र च इकितानः एवं मा करोतु, तस्य नाम एव चेकितानः. काशीराजः च वीर्यवान् पुरुजित कुंतीभोजः च शैब्यः नरपुंगवः युधामन्युः च विक्रांतः उत्तमौजाः च वीर्यवान् सौभद्रः द्रौपदेयाः च सर्वे महारथाः एव. सर्वे एव महारथाः एवमपि वक्तुं शक्यते. सर्वे एव महारथाः एवं पदच्छेदः अतीव सरलः वर्तते. अग्रे अन्वयार्थं गच्छामः। अत्र यदि वयं कर्तृपदं कर्मपदं क्रियापदं तावत् पश्यामश्चेत् कर्तृपदं क्रियापदं कर्मपदम् अस्माभिः अन्वेष्टुं शक्यते वा? केन् वि ट्रै टु ऐडेण्टिफै द कर्तृपदं कर्मपदं क्रियापदम् इन् दिस् सेण्टेन्स्? You can even message if you have tried identifying. From this shloka probably we can start trying to identify and put the basic anvaya form. Like udaharanartham prathama shloke tavate asmavi drishtamasti he sanjaya matputraha panduputraha kimakurvata tavadeva prathama shlokasya anvayaha. द्वितीयश्लोकस्य अन्वयः यदि वयं पश्यामश्चेत् राजा आचार्यम् अब्रवीत् तावत् सम्यक् नो कर्तृपदं करेक्ट् ओके द्वितीयश्लोके तावत् राजा आचार्यं वचनम् अब्रवीत् तृतीयश्लोके हे आचार्य चमूं पश्य तावदेव ओ सर् ओ टीचर् चमूं पश्य तावदेव आसीत्। अस्मिन् श्लोके यदि वयं पश्यामश्चेत् वन् आन्सर् इस् देर् नो कर्तृपद सो डु आल् आफ् अस् अग्री टु दिस् ओके यदि वयं पश्यामः तत्र प्रायशः महारथानां नामानि सन्ति ओके थिंक वी आर् एबल् टु ऐडेण्टिफै दट् दर् इस् नो कर्तृप नो क्रियापदम् ओन्ली कर्तृपदानि ओन्ली करेक्ट् ओके सो वेरि वेरि सिम्पल् सेण्टेन्स् अगेन् अत्र महारथाः तावदेव अस्ति महारथाः एण्ड् द नेम्स् आफ् द महारथास् आर् गिवन् प्राबब्लि वाट् वी केन् डु वेन् इफ् यु आर् रैटिङ्ग् इफ् पीपल् आर् देर् हु आर् अपियरिङ्ग् फार् द भगवद्गीता एक्सामिनेशन्स् हियर् सो जस्ट् इन् द ब्राकेट् वेन् यु आर् रैटिङ्ग् द अन्वया फार् द श्लोक जस्ट् रैट् सन्ति बिकास् ही इस् एनिवेस् दुर्योधन इस् टेल्लिङ्ग् आचार्य द नेम्स् आफ् आल् द महारथास् सो वाट् वी केन् डु इस् अत्र सर्वे महारथाः डेश् 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 महारथाः कीदृशमहारथाः तत्र विशेषणानि सन्ति वि केन् रैट् दट् अत्र डेश् 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 महारथाः सन्ति इन् द ब्राकेट् वि केन् पुट् सो दट् द सेण्टेन्स् इस् कम्प्लीटेड् फार् एन् अन्वया फार्म् इदानीं पश्यामः अत्र युधि अस्मिन् युद्धे युयुधानः विराटः महारथः द्रुपदः दृष्टकेतुः चेकितानः काशीराजः कीदृशः काशीराजः अगेन् वीर्यवान् काशीराजः तत्र वीर्यवान् इति काशीराजस्य विशेषणपदम् एस् वि सा इन् द फार्मेशन् आफ् अन्वय वाट् एवर् विशेषणपदास् आर् देर् विशेषणानि पदपूर्वप्रयोक्तव्यानि वि हव् टु रैट् इट् बिफोर् दट् सो वीर्यवान् काशीराजः पुरुजित् कुन्तिभोजः तत्र नरपुङ्गवः इति विशेषणं तावत् शैब्यकृते अस्ति एवं नरपुङ्गवः शैब्यः अनन्तरं युधामन्युः तस्यापि विक्रान्तः इत्यपि अस्ति तत्र विक्रान्तशब्दस्य पूर्वप्रयोगः एव साधु दो हियर् इट् इस् रिटन् ए लिटिल् बिट् डिफ्रेण्ट्लि वी हेव् टु टेक् विक्रान्त बिहैण्ड् युधामन्यु विक्रान्तः अ पवर्फुल् युधामन्यु दट् दोस् अब्जेक्टिव्स् आर् गिवन् टु स्पेसिफिक् पीपल् विल् सी वै दीस् अब्जेक्टिव्स् आर् गिवन् स्पेसिफिक्लि टु ईच् आफ् दीस् पीपल् विल् सी हू दीस् पीपल् आर् विल् सी इट् इन् दिस् क्लास् अगेन् वीर्यवान् इति उत्तमौजाः तस्य विशेषणं विक्रान्तः उत्तमौजाः सौभद्रः अनन्तरं द्रौपदेयाः एते सर्वे शूराः, भीमार्जुनसमाः, ते सर्वे महेश्वासः, ते सर्वे महारथाः एव. So here if we see, we have specific people's name, and those specific people have specific adjectives also, but generally we also have other overall adjectives of Maheshwasaha and Maharathaha. These two adjectives are also used for all these people. All the people who are there are Maheshwasaha. Ishwasa, Ishu ityukte tatra archery, Ishu vidya, dhanur vidya bhavati, maha Ishu asaha. Ye sarve tatra Maheshwasaha, great archers who are there. They are the people, all these people who we mentioned above are great archers, and they are also Maharathaha. We will see in the special notes who are Maharathas, what is the definition of a Maharatha. So that is what we are seeing here. And asmin anvaye tatra anyaritya api anvayam kartum shakyate. We can also do an anvaya in other form, wherein we can start with Bhima Atra Maheshwasaha Yudhi Bhimarjuna Samaha. Yudhi Bhimarjuna Samaha, who are equal to Bhima and Arjuna Sama in the Yudha. We can take that Anvaya form to Yudhi also. Yudhi Bhimarjuna Samaha Shuraha, all the heroes who are there. And then the names can be told, and Maharathaha can also be told. Of course, we can make the Anvayas in various form. The advantage being in Sanskrit always that we have the advantage of Linga Vibhakti Vachana. Only the Visheshanas have to be before the relevant Kartrupadam or Karmapadam. Wherever we are using them, those should be placed relevantly. Otherwise, we can have 2-3 types of Anvaya here, and they can all be correct. इदानीं पश्यामः पदपदार्थं पश्यामः. अत्र इत्युक्ते अस्मिन् कुरुक्षेत्रे, अस्मिन् स्थले कुरुक्षेत्रे युद्धे, युधि इत्युक्ते युद्धे, युयुधानः, युयुधानः इति एकस्य महारथस्य नाम. युयुधानम् इज द नेम ऑफ वन ऑफ द महारथा. What we will do is we'll try to see who each of them are there here itself. It shouldn't be a problem, so that we can cover the KK section here itself, who is who section. Yuyudhana was name of one Maharatha called Satyaki, who was the student of Arjuna. So he belonged to the Yadava clan, and he was very much bhakta of Shri Krishna. So he was an Atirathi and also a Maharathi. And he did, what happened was he survived through the Mahabharata war, but later on in the Yadukula Yuddha, which happened, which was due to the Shapa of one of the sages, and the Yadukulas, they fought amongst themselves. In that Yuddha, Yuyudhana got himself killed in that Yuddha. So Yuyudhana, a person, Maharatha from the Yadava clan, who was a great Krishna Bhakta and Arjuna Shishya. So these are the notes which we can keep for ourselves. This is Yuyudhana. The next person is Virata. All of us know Virata, quite a famous person, because Virata was the was the Maharatha Raja who helped the Pandavas during their Ajnatavasa of 1 year, which they had to undergo because of their condition. So during this 1 year only, Kichakavada happened, lot of important stories happened, and then Virata's daughter Uttara, who was there, she was married to Abhimanyu, Arjuna's son, and Virata also had one more son, Uttaraha. Uttara, he had one daughter by name Uttara, who got married to Abhimanyu. There was Uttara Kumara, who was also who was the son of Virata. So we all know that how Uttara ran away from the war field, and then Arjuna went to the Chami Vriksha, got all the weapons, and then he came back and fought that Yudha. We all know that story. So Uttara Kumara, Shweta Kumara and Shankha Kumara are the three sons of Virata Maharaja. So Prathamastavat Yudhanaha, Dutiyastavat Virataha. Yete Sarve Maharathaha. So we'll see the definition of Maharatha. Maharatha and Athiratha, and there are other cadres in the Yudha, in the war field, like what we have today, the lieutenants and colonels. Very simple, similarly we have Maharatha. Maharatha is one who can single-handedly fight around 10,000 to 11,000 soldiers in a war, together, at a time, at a single time, a person who can fight 10,000 to 11,000 soldiers in a war from his chariot itself, single-handedly, who can, through a combination of his Dhanurvidya or Khadga Vidya or through other Mantra Vidya, however they can do it, they will be called as Maharathas. So these are the names of all the Maharathas, what we are discussing. Anantaram Tritiyastavat Drupadaha. Drupadaha, we all know the story of Drupada Maharaja. Drupada Maharaja was he was the son of a king called Prishat iti Panchala Deshiyah yete sarve, and Prishata and sage Bharadwaja were actually good friends. Bharadwaj Ashrama was where Drupada and Dronacharya studied together in their childhood. We saw the previous story wherein Dronacharya was insulted by Drupada, and then he was defeated by the Pandavas and got back, and he was brought to Dronacharya. And in spite of this enmity, still Dronacharya taught all the Dhanurvidya to Drishtadyumna. That is where we saw that the word Acharya, person who teaches unconditionally and who is a very very Karunamurti, that word, how aptly it fits Dronacharya, we saw that story. But now coming to the Drupada part of the story. So Drupada was he insulted Dronacharya, and after he was defeated by the Pandavas and taken in captive to Dronacharya, he gave half the kingdom to Dronacharya and was released. But still in his mind, Drupada had lot of revenge towards Dronacharya, and he called two Brahmarishi by name Yaja and Upayaja, and then what they did was, they did a sacrifice, and in the sacrifice the Sankalpa itself was to get a son who could defeat Dronacharya. And Drishtadyumna was born out of that Yajnagni. And then along with Drishtadyumna, Krishna was also born. Krishna, Strilinga Shabdaha. Krishna was later, she came to be known as Draupadi. She also had another name called as Yajnaseni. And she was married by the Pandavas. So he was also a great Maharathi. And later on, he was, though Drishtadyumna killed Drona, before that itself, Drupada was killed by Dronacharya itself. So this is the story of Drupada Maharaja. Agre Pashyamas Chete, Prathamastavat Yudhanah, Dutiyah Viratah, Tritiyah Drupadah, Chaturthastravat Drishtaketuhu. All of us know the story of Shishupala. He had a boon of abusing Krishna for around 100 times. Kshamyatam. So Shishupalasya Sutaha Chedi Rajasya Shishupalasya Sutaha Eva Drishtaketuhu Yeshopi Dronacharyeneva Maritaha. If you see most of these people whom Duryodhana is showing, most of them finally attained their end through Dronacharya himself. This also shows that this is a samkhya wherein we can see that all the people Maharathas are there, O Drona. And when he told him, when he was talking to him sarcastically, Drona showed his real prowess there during the war. Chekitanaha. The next person is Chekitanaha. Like I said, generally there is a tendency to split cha and ikitanaha kinds. kindly do not do that. Chekitana is the name of the person itself. He also belonged to the Vrishnikulam. He was a Yadava Vamshiya Yeshaha. And each Akshauhini army had a separate commanders actually. So overall commander in chief of the Pandu army was Drishtadyumna. The Kaurava army for the first 10 days was Bhishma. So this was the overall commander in chief. And then each sub Akshauhini had an individual commander. So Chekitana was actually one of the 7 commanders of the 7 Akshauhinis. And he was also destroyed or killed by Dronacharya only. Next again we will see Panchamastavat Kashi Rajah. Kashi Rajasya Bahuni Namani Santi Mahabharate Yadyapi Pratyekam Namatavat Tatra Sthirataya Anveshtum Nashakyate. We are not able to clearly get the name of that person, but still he has lot of names like Sena, Vindu, Krodahanta and other names. And Kashi Raja, he has got a special adjective, Viryavan. Not all the people have got this adjective. Of course, he was a very, very great warrior, because of which Viryavan Kashi Raja iti tatra visheshanasya prayoga hasti. Viryavan Kashi Raja, Viraha Saha. There are specific characters again for specific words. Viraha, Dhiraha, Shuraha. Specific, though in the common sentences we use them interchangeably, still specific characteristics are given for the adjectives Viryavan. Anantaram Tavat, Purujit and Kunti Bhoja are the two people whom we are seeing. And Purujit and Kunti Bhoja, both of these were the brothers of Maharani Kunti. We do see Kunti Bhoja's reference in lot of places in the Mahabharata, and thus they were actually the maternal uncle of Yudhishthira. And again Purujit and Kunti Bhoja were also killed by Dronacharya himself. And then now coming to Shaibya. So Shaibya, if we see, was the father-in-law of Yudhishthira. Shaibya had a daughter by name Devika, who has given to, who has been married to Yudhishthira. And he was a Veera, Dheera and Shura, but still, if we see that, he had a great character, Shilam Parambhushanam. We have always seen that. So, above all these war capabilities, what he had, he was a man of very high moral value and good character, which is why he has the adjective called Narapungavaha. Nareshu Pungavaha, Shreshtaha Yaha Vartate, Saeva Narapungavaha. Narapungavaha, Shaibhyasya Visheshanapadam. That is the adjective used for Shaibhya. So Narapungavaha is not another Maharatha's name. Narapungavaha is an adjective given to Shaibhya. Narapungavaha, Shaibhyaha. Next, again, Yudhamanyu and Uttamaujaha, both of these are two people, Yudhamanyu and Uttamaujaha. We can take the Vikranta Padam for as an adjective for Yudhamanyu, and Viryavan for Uttamaujaha. If we take that, Vikrantaha Yudhamanyu, Viryavan Uttamaujaha. We can take it like that. Vikrantaha Yudhamanyuhu, the very, very mighty, valorous Yudhamanyu, and a valiant Uttamaujaha. These are the two people. So Yudhamanyu and Uttamaujaha, if we see, they belong to the Panchala Desha, and they were actually made to guard Arjuna's chariot. Like all the Rajas had other Maharathas defending them. So it is always the formation. The Maharaja is generally in the center of either the Akshauhini or the sub-Akshauhini, and he is surrounded by the Ratha, Gaja, Turaga and then the Padatis. Therefore, so that they do not get any harm, does not easily approach them. So these two, Yudhamanyu and Uttamaujaha, both of them actually were killed by Ashwatthama along with the Draupadeyas. In the, we know that story when Ashwatthama comes in the middle of the night and he considers the Pandavas, he considers the Panduputras as Pandavas and kills them in the darkness. He doesn't realize it, but finally it ends up that the Panduputras, the Draupadeyas, were actually there. And Yudhamanyu and Uttamojaha also are killed by Ashwatthama only. The next one is Saubhadraha. Subhadrayaha Patyam Puman Saubhadraha. Abhimanyuhu iti tasya nama. We know the story of Abhimanyu. So, Arjuna and Subhadra. Subhadra was Krishna's sister was Subhadra. And Abhimanyu was married to Uttara, like we saw. And then he got a lot of training from his father Arjuna also. And we know about the Chakravyuha incident, which is a famous incident when Abhimanyu gets into the Chakravyuha. Formation, if possible, in the next class we'll see the photos of the various formation, Vajravyuha, Chakravyuha and other Vyuhas in the Mahabharata battle array, so that we are able to appreciate how the Vyuhas were kept. And Chakravyuha is one a little bit indestructible formation, and a special skill set is required, which only he knew. And so this is the story of Abhimanyu, which we can even see it in a detail later on. Draupadeyaha. एतत् बहुवचने अस्ति द्रौपदेयाः द्रौपदकुमाराः द्रौपद्याः कुमाराः द सन्स् आफ् द्रौपदी पाण्डवानां पुत्राः द सन्स् आफ् द्रौपदी एण्ड् पाण्डवास् दे आर् आल्सो सीन् हियर् भीमार्जुनसमाः लैक् वि सेड् भीमार्जुनसमाः इस् एन् अब्जेक्टिव् विच् केन् बी टेकन् फार् द ओवराल् आल् दीस् पीपल् अबौ आल्सो आर् specifically taken to Draupadeyaha Atmavai Putranamasi. So we can always know that is the great saying. So generally sons are always as equivalent to the fathers also. So Bhimarjuna Samaha Draupadeyaha Ityapi Svikartum Shakyate. Again, if we see Draupadi's five sons who were there, Prativindya, Shutasoma, Shutakarma, Shatanikaha, Shutasenaha. These are the five sons of Draupadi, respectively, like Yudhishthira, Bhima, Arjuna, Nakula, Sahadeva, sons they were, and they were also killed by Ashwatthama. So these are the people who are there. All of them are Shuraha, Atyanta Viraha, and Te Sarve Maheshwasaha, a very great exponents in the field of archery, and Maharathaha. They were great warriors who fit the definition of who are able to handle more than 10,000 to 11,000 people at a single point of time, single-handedly. Evam padapadarthah asmabhi drishtamasti. Idanim tatra padasya parichayah pashyamah. Atra iti avyayameva. Sadrisham trishulingeshu sarvasucha vibhaktishu. वचनेषु च सर्वेषु यत् न व्येति तत् अव्ययम् द नोट्स् आल्सो कण्टेन्स् द नेम्स् इन् द प्राब्ली इन् द के के सेक्शन् वी केन् सी दट् आल्सो अगेन् इन् अ लेटर् स्टेज् युधि युधि युध् इस् द शब्द धकारान्तः युध् इस् द शब्द स्त्रीलिङ्गः युधि इस् द सप्तविभक्ति एकवचन फार्म् युधानः विराटः महारथः द्रुपदः दृष्टकेतुः चेकितानः आल् दीस् आर् वन् सेट् अगेन् वेरि वेरि ईजी फार् अस् टु ऐडेण्टिफै अकारान्त पुल्लिङ्ग रामशब्दवत् एव भवति प्रथमपुरुष प्रथमाविभक्ति एकवचनम् एव वीर्यवान् इति शब्दः यदि वयं पश्यामश्चेत् वीर्यवत् इति तकारान्तः पुल्लिङ्गः वीर्यवत् शब्दः वीर्यवान् is the prathama vibhakti ekavachana form. Again, going ahead, if we see Kashirajaha is the akarant of pullinga. Purujit, again there is a printing mistake here, it is not akarant of pullinga. पुरुजित तकारांतः पुल्लिङ्गः प्रथमा विभक्ति एकवचनम् वी विल चेंज द टेंस सेंड इट अक्रॉस एंड देन वी हैव कुंतीभोजः नरपुंगवः शैब्यः ऑल दीज आर अकारांतः पुल्लिङ्ग प्रथमा एकवचनम् If there are any problems in seeing the screen, kindly try to refresh or reconnect yourself. It may be due to the connection error sometimes. A few chhatras have expressed this. Hope it is fine now. I think it is fine now for some of them. Uttamaujah. Again, there are some errors in this. Apologies for that. We will reprint it and resend the notes. Uttamaujah. I think in the copying there is some error. Uttamaujah. The shabda is Uttamaujas actually. Uttamaujah. Uttamajas. Oh, Uttamajasah. So Uttamaujas. Sakarantav pullinga. Uttamaujas shabda. Prathama vibhakti. एकवचनम् उत्तमौजाः सौभद्रः इज क्वाइट अ सिंपल वन सौभद्रः इज सुभद्रायाः अपत्यं पुमान विल सी दैट बट द वर्ड इज अकारांतः पुल्लिङ्ग प्रथमा विभक्ति एकवचनम् सौभद्रः शूराः शूर शब्दः अकारांतः पुल्लिङ्गः भीमार्जुन समाः अगेन अकारांतः पुल्लिङ्ग प्रथमा विभक्ति बट शूराः भीमार्जुन समाह इज बोथ ऑफ देम आर बहुवचनम बहुवचन शब्दाः सर्वे अकारांतः पुल्लिङ्गः सर्व शब्दः प्रथमा विभक्ति बहुवचनम सर्वः सर्वौ सर्वे होप इट इज नॉट टू फास्ट महेश्वासाः अगेन सिंपल वर्ड महेश्वासः अकारांतः पुल्लिङ्गः महेश्वास शब्दः महेश्वासः महेश्वासौ महेश्वासाः अकारांतः पुल्लिङ्ग प्रथम बहुवचनम् महारथाः अकारांतः पुल्लिङ्ग प्रथमा विभक्ति बहुवचनम् महारथाः सिंपल वर्ड्स मोस्ट ऑफ देम आर सिंपल वर्ड्स सम करेक्शंस नीड्स टू बी डन विच वी विल डू इट एंड सेंड इट अक्रॉस एव लाइक ऑल ऑफ अस नो इज एन अव्यय इट्स एन इंडिक्लेनेबल अव्यय गोइंग टू द अर्थ पार्ट ऑफ इट अत्र अस्मिन् युद्धे के सन्ति वी विल ट्राई टू लिस्ट आउट द नेम्स करेक्टली we'll see how many people are there what are the adjectives we'll try to see it now yudhanah viratah drupadah drishtaketuh chekitanah kashirajah purujit kuntibhojah shaibhyah yudhamanyuh uttamaujah saubhadrah Till now we have 12 people. We have around 12 warriors, and then we have the Draupadeyah who are 5. So 12 plus 5, 17 people are there in this. So Saptadasha Maharathanam Namani Santi Tat Kripaya Samyak Pashyatu Itara Shabdaha Visheshana Shabdaha Eva. The other words are Visheshana Shabdas. We should be able to identify. Who are the Visheshan of that and the characters. 17 Maharathas are being mentioned here with specific Visheshanas to each of them. The common विशेषणासार ते सर्वे भीमार्जुन समाः सन्ति, ते सर्वे शूराः सन्ति, ते सर्वे महेश्वासाः, ते सर्वे महारथाः सन्ति इति तत्र क्रियापदस्य अन्वयेन अतीव सरलतया अर्थावगमनं भवति. सो वी हव् सीन् द इङ्ग्लिश् मीनिङ्ग् आल्सो. वि हव् ग्रेट् हीरोस्, मैटी आर्चर्स् हु आर् ईक्वल् टु भीमा अण्ड् अर्जुन. आल् दीस् द नेम्स् आर् सीन् हियर्. एवं केवलतात्पर्यं पश्यामश्चेत् पाण्डवसैन्ये अनेकयुयुधान विराट इत्यादयः भीमार्जुनसमाः शूराः धनुर्धराः महारथाः एव सन्ति. इत्युक्ते आल् दीस् आर् महारथास् ओन्लि. सो देर् इस् लैक् वि सा इन् द प्रीवियस् श्लोकास्, देर् इस् अ काम्बिनेशन् आफ् फियर् सर्कासम् इन् द वाय्स् आफ् दुर्योधन. When he is mentioning all this to Dronacharya, he is trying to instigate Dronacharya for him to become more aggressive. But the fear also is born from the fact that he is seeing a bigger formation today, and he is seeing all the Maharathas, and each of them individually can take care of 10 to 11,000 people. So that fear is also seen in the various use of words like sarve. सर्वे महारथाः एव पाण्डवसैन्ये, सर्वे महारथाः एव, एते सर्वे सन्ति, सर्वे महारथाः एव, दे आर् महारथास् ओन्ली. अगेन् वी केन् सी दोस् आल्सो इन् हिस् टोन्, विच् वी केन् जस्ट् रेफर् आल्सो इन् द स्पेशल् नोट्स् वाट् वी आर् गोयिङ्ग् टु सी लेटर्. इदानीं व्याकरणभागं पश्यामश्चेत् यथा अस्माभिः पूर्वमुक्तमस्ति, साधारणतया मोस्ट्ली इट् इस् विसर्गसन्धि इन् वन् आफ् इट्स् फार्म्. शूराः महेश्वासाः, अत्र शूरा महेश्वासाः. यदा वयं श्लोकं वदामश्चेत् अत्र शूरा महेश्वासा भीमार्जुन इति वक्तव्यम्. एवं शूराः प्लस् महेश्वासाः विसर्गलोप, महेश्वासाः प्लस् भीमार्जुनसमाः लोप विसर्गलोप, भीमार्जुनसमाः प्लस् युधि विसर्गसन्धि लोपः भवति. अनन्तरं युधानो विराटः इति वयं पश्यामश्चेत् युधानः विराटः. सो वी हेव् द सन्धि युधानः प्लस् विराटः. तत्र यदि वयं पश्यामश्चेत् प्रथमस्तावत् युधानः तत्र सकारत्वेन परिणमते, विविध युधानः, देन् उकारा बिकम्स् अ द विसर्ग बिकम्स् एन् उकारा. युधान अ प्लस् उ Visarga becomes Ukara after anyway Sakara and Repha. So the various rules, as we know, Sasajushoru Ruhu, we can see the rules and all later also in Sandhis. So basically Yudhanaha Visarga becomes Sakara Repha, and then it becomes an Ukara basically. Once we take the Ukara, A plus U, Gunasandhi forms, and it becomes Yudhano Virataha. Yudhanaha plus Virataha, Yudhano Virataha. विराटः प्लस् च विसर्गसकारादेशः भवति प्रथमतया, एण्ड् देन् विराटस् प्लस् च बिकम्स् विराटश्च, च्युत्तसन्धेः प्रयोगः भवति तत्र. सिमिलर्लि वि हेव् द्रुपदः प्लस् च द्रुपदश्च, दृष्टकेतुः प्लस् च दृष्टकेतुश्च, चेकिताना पार्ट् अगेन्, दृष्टकेतुः प्लस् चेकितानः, दृष्टकेतुश्चेकितानः, काशीराजः प्लस् च कुन्तिभोजः प्लस् च शैब्यः प्लस् च युधामन्युः प्लस् च. अतीव सरलः विसर्गस्य सकारादेशः, अनन्तरं श्चुत्वसन्धिः भवति. अगेन् हियर् इफ् यु सी विक्रान्तः उत्तमौजाः, देर्फोर् वैल् टेलिङ्ग् द श्लोक युधामन्युश्च विक्रान्त उत्तमौजाश्च, एदर् if you have to give a pause, it can be Yudhamanyuscha Vikrantaha Uttamaujascha Vidyavan, or it should be Vikranta Uttamaujascha. Further doing sandhi of Vikranta Uttamaujascha will be wrong. We have to give that pause between the words there and still do the Samhita Karya Kartavya Yadyapi. Yudhamanyuscha Vikranta Uttamaujascha Vidyavan will be the करेक्ट् वे टु टेल् इट् आल्सो. सौभद्रः द्रौपदेयाः, सौभद्रो द्रौपदेयाः, उकारः भवति विसर्गस्य उकारादेशः भवति. द्रौपदेयाः च द्रौपदेयाश्च सर्वे एव सर्व एव भवति तत्र प्रथमतया यान्तावान्तादेशसन्धिः भवति अनन्तरं लोपः भवति लोपशाकल्यस्य इत्यादयः सूत्राः सन्ति एण्ड् देन् दे रिमेन् एस् प्रकृतिभाव ओन्ली द डीटेल्स् विल् सीट् लेटर् बट् वी शुड् नो दट् सर्वे प्लस् एव इस् सर्व एव तत्र यान्तावान्तादेश अनन्तरम् अयु भवति यकारस्य लोपः भवति देन् वि हाव् द प्रकृतिभाव फार्म् जस्ट् स्टेयिङ्ग् देर् सर्व एव सो वि हाव् सम् शिष्यास् आस्किङ्ग् शुडन्ट् इट् बि सर्वे एव विक्रान्तः उत्तम डू यु हाव् अ प्रिण्टिङ्ग् मिस्टेक् आर् सम्थिङ्ग् डो वन्स् वि नो द सन्धीस् दीस् आर् क्लारिफैड् फार् अस् सर्वे एव महारथाः सन्धिभागः दृष्टः अस्ति अनन्तरं तत्र समासभागान् पश्यामः महेश्वासाः लैक् वी सेड् महान् इश्वासः ये ते महेश्वासाः येषां ते महेश्वासाः सो महान् ग्रेट् इश्वासः इशु आर्चरि इशु रिलेटिङ्ग् टु आर्चरि इश्वासः आर्चर् रिलेटेड् नालेज् महेश्वासाः भीमार्जुनसमाः भीमश्च अर्जुनश्च भीमार्जुनौ द्वन्द्वसमासः भवति ताभ्यां समः यः अस्ति भीमार्जुनसमः ते भीमार्जुनसमाः भीमार्जुनाभ्यां समाः हू आर् ईक्वल् टु भीमा एण्ड् अर्जुन इन् द वार्फेर् केन् बि अ तृतीया तत्पुरुष और् षष्ठी तत्पुरुष केन् आल्सो बि डन् बोत् फार्म्स् आर् क्वैट् वेलिड् महारथः अगेन् महान् रथः यस्य सः सो इट् विल् बि इट् विल् डिनोट् द बहुव्रीहि फार्म् ओन्ली विल् डिनोट् द पर्सन् हू इस् स्टाण्डिङ्ग् आन् अ महारथ अ बिगर् रथ एण्ड् हू बिलाङ्ग्स् टु दट् केडर् महारथ अ सिम्पल् इफ् यु ट्रै टु डु अ कर्मधारय विशेषणपूर्वपदकर्मधारय महान् च असौ रथः च इट् ओन्ली डिनोट् द रथ सो देर् फोर् यु हेव् टु डु द बहुव्रीहि फार्म् विच् विल् बि मोर् एप्ट् महान् रथः यस्य सः महारथः नरपुङ्गवः नरेषु पुङ्गवः यः अस्ति सः नरपुङ्गवः यदि वयं पश्यामश्चेत् पुङ्गवशब्दः पुमांश्च असौ गौश्च पुङ्गवः श्रेष्ठः इत्यर्थः बेसिकलि सो हू इस् द बेस्ट् अमाङ्ग् द पर्सन् पुंषु श्रेष्ठः पुङ्गवः कर्मधारयः नरेषु पुङ्गवः नरपुङ्गवः नरश्रेष्ठः विचुल्बिय सप्तमी तत्पुरुष उत्तमौजाः इस् द नेम् आफ् द पर्सन् उत्तमम् ओजः वि हेव् द त्री वर्ड्स् ओजः तेजः ब्रह्मवर्चः ओजः इस् अगेन् बोत् आर् द त्री दो इण्टर्चेञ्जबलि यूस्ड् हेव् स्पेसिफिक् डिनोशन्स् ओजः इस् बै अ वेरि ग्रेट् आचरणम् आफ् द ब्रह्मचर्य व्रत वन् gets the ojas which is there ojas is a shakti or a brilliance which one gets through the continuance of celibacy which is brahmacharya vrata so uttamam ojah yasya sah sah uttamaujah iti akhyatah asti uttamaujah which is a bahuvrihi samasa yudhi is a kridanta quip pratyah yudhi yudhi tasyam yudhi kridanta form is there which we know going to the next section we have seen maharatha ityukte kk maharathaah ye tatra dashashastram va ekadashashastra janan ekada ekatha yuddham kartum shaknuvanti te eva maharathaah we saw that the sarva shabda includes his fear it also denotes the fear wherein everybody seems to be a maharatha in the pandava army so there is a fear which has been induced in the mind of duryodhana these are the some vyakhyakaras who have given this these people who are writing exams can write these as special notes and explain these in the tippani bhaga when we are writing the exams which gives us a better mark position also yudhi again the word yudhi can be anvaya in the starting itself as atra yudhi ete sarve santi these people are there or yudhi bhimarjuna samaha which is a more apt one which is the Like some Bhashyakaras have taken that Yudhi will be more apt when it is taken as a Visheshana or when it is Anvaya for Bhimarjuna Samaha. So that is the thing. Then we saw the various people, Yudhanaha, Viratah, Drupadaha, KK, the who's who. We also had a homework to see the who's who in the first three shlokas. There is a homework. We didn't receive any replies on that. See if we can try to do, like the way we discussed most of the who's who today, because this was the entire shlokas, all the three shlokas itself talk on each of these individuals, and we need to know the greatness of the people also. A little bit of charitram itihasam also helps us. More details of all these people whom we discussed today, generally we can go to the Udyoga Parva of Mahabharata. People who have the entire section of Mahabharatas at home, you can refer to the Udyoga Parva. Chapters 169 to 172, these will have the specific stories, very detailed stories, and individual strengths of all these Maharathas are also given in a detailed section, can be seen from there also. So what we'll do is we'll just make some corrections to the notes. There are some errors, very sorry for that errors. We will make those corrections and send across the notes. The audio forms also will be loaded soon. There is, like we said, there is some problem in the size of the file. We will load them very soon, and we'll also send the link across. Very sorry for the delays in from our side, but hope the classes are being useful to all of us. Any feedback? We got some feedback on the connectivity problems. Though we will encourage that, we'll try to see. Since it is not felt by everyone, it may be some individual connection problems. But still, the suggestion of sending the notes earlier has been taken. We will do send it a day earlier from the next class, so that we can take printouts and also be ready. In case we lose the connection, we'll be able to take that. Very good suggestion was given by Falguni madam. We will send it across to everybody. Sorry for any delays or connectivity problems. What we'll do is we have 2 minutes. We'll quickly tell the first 6 shlokas, and we'll try to by heart these shlokas and come for the next class and try to know them. Meanings also. Any doubts which are there, please send it across through mails also. We'll try to clarify it. We'll take it like that. We'll quickly tell the 6 shlokas, chant it together, and then try to close out the class. Dhritarashtra uvacha धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः मामकाः पाण्डवाश्चैव किमकुर्वत संजय. संजय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा आचार्यमुपसंगम्य राजा वचनमब्रवीत् पश्येताम् पाण्डुपुत्राणाम् आचार्य महतीम् चमूम् व्यूढाम् द्रुपदपुत्रेण तव शिष्येण धीमता अत्र शूरा महेश्वासा भीमार्जुनसमायुधि युयुधानो विराटश्च द्रुपदश्च महारथः धृष्टकेतुश्चेकितानः काशीराजश्च वीर्यवान् पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः. स्माल् रिक्वेस्ट् वैल् टेलिङ्ग् द श्लोकास्, प्लीस् कान्सन्ट्रेट् आन् एव्री लेटर्. The Alpaprana, Mahaprana, the pause where we have to give, where we have to pause, where we have to tell together. Please concentrate on that also, so that our Uchcharana is also as much as we try to perfect telling the shlokas also. यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो राम 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 टु ऑल होप द क्लास वॉज यूजफुल for every minute of what all of you have spent. Sincere thanks to all of you for coming early in the morning and attending the class. Please send your feedbacks and any requests through the mail IDs which are given. We will implement all of them slowly one by one. Thanks a lot. Ram Ram Ram.